स्वरूपं तथा वाकलत्रं यशश्चारुचित्रं धनं मेरुतुल्यं शरीरं स्वरूपं तथा वाकलत्रं यशश्चारुचित्रं धनं मेरुतुल्यं गुरोरङ्घ्रिपद्मे मनश्चेन लग्नं गुरोरङ्घ्रिपद्मे मनश्चेन लग्नं ततः किं ततः किं ततः किं ततः किं
ततः किं ततः किं ततः किं
कलत्रं धनं पुत्रपौत्रादि सर्वं गृहं बान्धवाः सर्वमेतद्धि जातम् कलत्रं धनं पुत्रपौत्रादि सर्वं गृहं बान्धवाः सर्वमेतद्धि जातम् गुरोरङ्घ्रिपद्मे मनश्चेन लग्नं गुरोरङ्घ्रिपद्मे मनश्चेन लग्नं ततः किं ततः किं ततः किं ततः किं
ततः किं ततः किं ततः किं
शास्त्रविद्या कवित्वादिगद्यं सुपद्यं करोति षडङ्गादिवेदो मुखे शास्त्रविद्या कवित्वादिगद्यं सुपद्यं करोति गुरोरङ्घ्रिपद्मे मनश्चेन लग्नं गुरोरङ्घ्रिपद्मे मनश्चेन लग्नं ततः किं ततः किं ततः किं ततः किं
ततः किं ततः किं ततः किं
देशेषु मान्यः स्वदेशेषु धन्यः सदाचारवित्तेषु मत्तो न चान्यः विदेशेषु मान्यः स्वदेशेषु धन्यः सदाचारवित्तेषु मत्तो न चान्यः गुरोरङ्घ्रिपद्मे मनश्चेन लग्नं गुरोरङ्घ्रिपद्मे मनश्चेन लग्नं ततः किं ततः किं ततः किं ततः किं
ततः किं ततः किं ततः किं
भूपभूपालवृन्दैः सदा सेवितं यस्य पादारविन्दम् क्षमामण्डले भूपभूपालवृन्दैः सदा सेवितं यस्य पादारविन्दं गुरोरङ्घ्रिपद्मे मनश्चेन लग्नं गुरोरङ्घ्रिपद्मे मनश्चेन लग्नं ततः किं ततः किं ततः किं ततः किं
ततः किं ततः किं ततः किं
यशो मे गतः दिक्षु दान प्रतापात् जगत् वस्तु सर्वं करे मत् प्रसादात् यशो मे गतः दिक्षु दान प्रतापात् जगत् वस्तु सर्वं करे मत् प्रसादात् गुरोरंघ्रि पत्नी मनश्चेन लग्नं गुरोरंघ्रि पत्नी मनश्चेन लग्नं ततः किं ततः किं ततः किं ततः किं
ततः किं ततः किं ततः किं
कांता मुखे नैव वित्तेषु चित्तम् न भोगेन योगेन वा वाजिराजौ न कांता मुखे नैव वित्तेषु चित्तम् गुरोरंघ्रि पत्नी मनश्चेन लग्नम् गुरोरंघ्रि पत्नी मनश्चेन लग्नं ततः किं ततः किं ततः किं ततः किं
ततः किं ततः किं ततः
गेहेन कार्ये न देहे मनो वर्तते मे त्वनर्घे अरण्येन वा स्वस्य गेहेन कार्ये न देहे मनो वर्तते मे त्वनर्घे गुरोरंघ्रि पत्नी मनश्चेन लग्नम् गुरोरंघ्रि पत्नी मनश्चेन लग्नम् ततः किं ततः किं ततः किं ततः किं
ततः किं ततः किं ततः